एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रस्तोत्री रत्नावली शर्मा। प्रतिनिधिसभायाः उपवेश अद्य दिवा एकवादनाय आहूतो वर्तते। प्रतिपक्षिदलानाम् अवरोधस्य कारणेन ह्य पञ्चदश निमेषानां कृते स्थगितीकृतः उपवेशः सूचनां प्रकाश्य अद्य यावत् स्थगितीकृतः आसीत्। प्रधानमन्त्रिणा बालेन्द्रशाहेन कतिपय दिनेभ्य पूर्वं प्रतिनिधिसभायाः उपवेशे नेपालेनापि भारतस्य भूमिः अतिक्रान्तास्तीति मया ज्ञातमिति उक्त्वा प्रदत्तायाः अभिव्यक्तेर्विरुध्य प्रतिपक्षिदलानां सांसदैः नैरन्तरेण सदने अवरोध सृज्यमानोऽस्ति। ह्यस्तनोपवेशेऽपि उपवेशस्य प्रारभणानन्तरं प्रतिपक्षिदलैः अवरोध सर्जनस्य पश्चात् सभामुखेन डोलप्रसाद अर्यालेन सीमविवादस्य विषये विपक्षिदलैः ध्यानाकर्षिते विषये सर्वकारः गभीरोऽस्तीति विश्वासः प्रदापितः आसीत्। स्तरे उपवेशे अवरोध सर्जनस्य कारणस्य विषये नेकपा एमाले दलस्य संसदीय दलस्य उपनेता पद्मा अर्यालः, नेपाली कम्युनिष्ट दलस्य सांसदः वर्षमान पुन, नेपाली कांग्रेस दलस्य सांसदः सन्तोष सुब्बा च धारणां व्यक्तवन्तः आसन्। उपवेशे श्रम संस्कृति दलस्य अध्यक्षः हर्कराज राई प्रधानमन्त्रिणा स्वस्य अभिव्यक्तौ संशोधनं विधाय सीमक्षेत्रेष् नेपाली सेनायाः परिचालनं कर्तव्यमिति धारणां व्यक्तवान् आसीत्। तदनु सभामुखेन अर्यालेन उपवेशं कार्यसूच्यां प्रवेशयितुं सहयोगाय भूयो भूय विपक्षि सांसदेभ्य अनुरोधस्य पश्चादपि विपक्षि सांसदै उपवेशे अवरोधानन्तरं ह्यस्तनोपवेशः स्थगितीकृतः आसीत्। राष्ट्रिय स्वतन्त्र दलस्य सभापतेः रवि लामिछाने विदस्य आह्वाने ह्य उपविष्टे सर्वदलीयोपवेशे राष्ट्रिय हितस्य विषयेष् विमृष्टमस्ति। सीमाप्रासादवर्तिनी सार्वजनिक लेखा समितेः सभाकक्षे उपविष्टे सर्वदलीयोपवेशे राष्ट्रिय हितस्य कृते राजनैतिकगते अवरोधस्य अन्तं विधाय संसदः सञ्चालनाय सहयोगस्य विषयेष् विमृष्टमस्तीति रासोपादलस्य महामन्त्री कविन्द्र बोर्लाकोची असूचयत्। महामन्त्री बोर्लाकोची नेपाल भारत सीमा विवादस्य विषय परराष्ट्र मन्त्रालयेन सह सम्बद्धोऽस्तीत्यत कौटनीतिक विषयेष् परराष्ट्र मन्त्रिणा शशिरखनालेन संसदि सम्बोधनस्य विषयेऽपि विमृष्टमस्तीति अज्ञापयत्। उपवेशे नेकपा एमाले दलस्य प्रमुख सचेतक पदीयः ऐन महरः, प्रधानमन्त्रिणा बालेन्द्र साहेन नेपालेनापि भारतस्य भूमिः अतिक्रान्तास्तीति उक्त्वा प्रदत्तायाः अभिव्यक्तेर्विषयं संसदः प्राविलेखात् अपसारयितुं प्रधानमन्त्रिणः सहस्य उत्तरदायित्वं सुनिश्चित्य संसत् सञ्चालनस्य वातावरणं निर्मातुं च बलं प्रादात्। उपवेशे राष्ट्रिय प्रजातन्त्र दलस्य अध्यक्षः राजेन्द्र लिङ्गदेन संसदि विपक्षिदलानि अल्पमते सन्तीति चर्चयन् बहुमतयुतेन सर्वकारेण सर्वासां सांविधानिक व्यवस्थानां विध्वंसस्य, शक्तिपृथगीकरणस्य, सन्तोलनस्य सिद्धान्तस्य च दुर्बलीकरणस्य कार्यं न विधातव्यम् इति उक्त्वा कौटनीतिक सम्बन्धस्य विषयेष् संवेदनशीलतया अभिव्यक्तिं प्रदातुम् आवश्यकमस्तीति न्यश्चिनोत्। उपवेशे विधि न्याय संसदीय विषय मन्त्री शोभिता गौतमः, प्रमुख प्रतिपक्षिणः नेपाली कांग्रेस दलस्य संसदीय दलस्य नेता भीष्मराज आङदेम्बे, नेपाली कम्युनिष्ट दलस्य सहसंयोजकः माधव कुमार नेपालः, नेकपा एमाले दलस्य संसदीय दलस्य प्रमुख सचेतक पदीयः ऐन महरः, राप्रपा दलस्य अध्यक्षः राजेन्द्र लिङ्गदेनश्च सहभागिन आसन्। पर्सा जनपदस्य बीरगंज महानगरपालिकायाः प्रमुखेण राजेशवान सिंहेन सहितानां सप्तानां जनानां विरुद्धे भ्रष्टाचारस्य अभियोगपत्रं पञ्जीकारितमस्ति। अधिकार दुरुपयोगानुसन्धान आयोगस्य प्रवक्तुः सुरेश नेउपाने विदस्य अनुसारेण सिंहेन सहितानां बीरगंज महानगरपालिकायाः तृतीयस्य ओडा क्षेत्रस्य तात्कालिकस्य ओडा सचिवस्य भिकारी राय इत्यस्य, तात्कालिकस्य ओडा सदस्यस्य कार्यवाहकाध्यक्षस्य च तुफैल अख्तर ठकुरा इत्यस्य, पर्सा जनपद प्रशासन कार्यालयस्य तात्कालिक प्रशासकीय अधिकृतस्य षड्कुमार पोखरेलस्य च विरुद्धे आरोपपत्रं पञ्जीकारितमस्ति। एवमेव गृहमन्त्रालयस्य अनुसन्धान समितेः संयोजकस्य, तात्कालिकोपसचिवस्य च पुष्कर राणा इत्यस्य, शाखाधिकृतस्य परशुराम पोखरेलस्य, सिन्धुपाल्चोक जनपदस्य इन्द्रावती ग्रामपालिकाया दशमवड़ा क्षेत्र से रीता भट्टराई इत्यस्याश्च विरुद्धे आरोप पत्र पंजीकारितम अस्ति। आयोगस्य अनुसारेण पर्सा जनपदस्य वीरगंज महानगरपालिकायाः तृतीयवड़ा क्षेत्रात् पर्सा जनपद प्रशासन कार्यालयात् जनी प्रमाणपत्र पंजीकरणे नागरिकता प्रमाणपत्रस्य निर्माणे च मिथ्याभिलेखं निर्माय सर्वकारीय प्रपत्राणां परिवर्तनं विधाय त्रुटिः कृता अस्ति इति आरोपे अभियोगपत्रं पंजीकारितम् अस्ति इति ज्ञापितं वर्तते। परराष्ट्र मन्त्रिणा शिशिर खनालेन सह जापान देशस्य राजदूतेन मायदा तोरु इत्यनेन शिष्टाचार मेलवार्ता विहिता अस्ति। मन्त्रालये ह्य सम्भूते मेलने अनयोर्मध्ये पारस्परिक हितस्य विभिन्नेषु क्षेत्रेषु सहकार्यम् अभिवर्ध्य नेपाल जापान देशयोः सम्बन्धम् अतिरिक्तं सुदृढं विधातुं विमृष्टमस्तीति परराष्ट्र मन्त्रालयेन ज्ञापितं वर्तते। राष्ट्रिय सभाया अन्तर्गतया संघीयता सबलीकरण राष्ट्रिय सम्बद्धता समित्या हुम्ला बाजुरा जनपदयोः सीमा विवादस्य कारणेन सृष्टायाः समस्यायाः समाधानाय दीर्घकालिकोपायम् अन्वेष्टुं गृह मन्त्रालयः निर्दिष्टो वर्तते। समितेः स्तनोपवेशे गृह सचिवः राजकुमार श्रेष्ठः हुम्ला बाजुरा जनपदयोः सीमा क्षेत्रस्य लामपाटा च्याचौर स्थाने सृष्टः सीमा विवादः सम्प्रति सामान्य अवस्थायामस्ति इति असूचयत्। सर्वकारेण मन्त्रालयानां संख्यायाः अष्टादश निर्धारणेन सहैव सचिवानामपि कार्यविभाजनं पदस्थापनं च विहितमस्ति। सर्वकारेण स्वीकृतायाः एतद्विक्रमवर्षीयायाः कार्यविभाजन नियमावल्याः अनुसारेण द्वाविंशतेः मन्त्रालयानां स्थाने अष्टादश मन्त्रालयानां निर्धारणानन्तरं सचिवानां पदस्थापनानां व्यवस्थापनं विहितमस्ति। सचिवद्वययुतेषु मन्त्रालयेषु एकस्यैव सचिवस्य व्यवस्थां विधाय विंशतेः सचिवानां पदस्थापनं दायित्वं च परिवर्तिते स्तः। षण्णां सचिवानां विभिन्नेषु निकायेषु कार्यभारं निर्धार्य पदस्थापनं विहितमस्ति। षट् सचिवाः अतिरिक्त समूहे स्थापिताः वर्तन्ते। नेपालस्य प्रथम गुहा मार्गस्य आगामिनः श्रावण मासात् सञ्चालनत्वेन पूर्वकार्यं विधीयमानमस्ति। नागढुंगा सिस्नेखोला गुहा मार्गायोजनायाः प्रमुखस्य सौजन्य नेपालस्य अनुसारेण आवश्यकं पूर्वकार्यं विधाय आगामिनः श्रावण मासस्य तृतीय सप्ताहं यावत् गुहा मार्गस्य सञ्चालनाय पूर्वकार्यं विधीयमानमस्ति। एशियाली खेलकूद प्रतियोगिता अन्तर्गतायां पुरूष क्रिकेट प्रचयन क्रीडायां नेपालेन हङकङ देशः पराजितोऽस्ति इति समाचारः।